नमः सर्वेभ्यः। अद्य कोविदवर्गस्य षड्विंशः पाठः, जुलै मासस्य त्रयोदशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मिनमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ। महाकवेः कालिदासस्य रघुवंश महाकाव्ये द्वितीयः सर्गः, द्वितीयसर्गस्य चिताः श्लोकाः अस्माभिः अधीयमानाः सन्ति। तत्र एतावत्पर्यन्तम् अधीतान् श्लोकान् एकवारं पठित्वा अग्रे गच्छामः। अथ प्रजानामधिपः प्रभाते, जाया प्रतिग्राहितगन्धमाल्यां, वनाय पीतप्रतिबद्धवत्सां, यशोधनो धेनुमृषेर्मुमोच। तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानान्धुरिकीर्तनीया, मार्गं मनुष्येश्वरधर्मपत्नी, श्रुतेरिवार्थं स्मृतिरन्वगच्छत्। आस्वादवद्भिः कवलैस्तृणानां, कण्डूयनैर्दंशनिवारणैश्च, अव्याहतैस्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत्। मरुत्प्रयुक्ताश्च मरुत्सखाभं, तमर्च्यमारारभिवर्तमानम्, अवाकिरन् बाललताः प्रसूनैः, आचारलाजैरिव पौरकन्याः। इत्थं व्रतं धारयतः प्रजार्थं, समं महिष्या महनीयकीर्तेः। सप्तव्यतीयुस्त्रिगुणानि तस्य, दिनानि दीनोद्धरणोचितस्य। अन्येद्युरात्मानुचरस्य भावं, जिज्ञासमाना मुनिहोमधेनुः। गङ्गाप्रपातान्तविरूढषष्पं, गौरीगुरोर्गह्वरमाविवेश। रघुवंशस्य रघोः पिता इक्ष्वाकुवंशस्य राजा दिलीपः सन्तानप्राप्त्यर्थं वसिष्ठस्य होमधेन्वाः नन्दिन्याः सेवां करोति। तां वनं नयति, तत्र बहुभिः प्रकारैः तस्याः परिचर्यां करोति। एवं सप्तव्यतीयुस्त्रिगुणानि तस्य दिनानि, एकविंशतिः एकविंशतिं दिनानि यावत् दिलीपः नन्दिन्याः सेवां करोति। परेद्युः अर्थात् द्वाविंशे दिने नन्दिनी दिलीपस्य भक्तिं, तस्य दार्ढ्यं ज्ञातुं गङ्गाप्रपातान्तविरूढषष्पं गौरीगुरोर्गह्वरमाविवेश। गौरीगुरुः हिमालयः, हिमालयपर्वते काञ्चित् गुहां प्रविष्टवती इत्येतावत् अस्माभिः दृष्टम्। अग्रे केचन श्लोकाः न सन्ति, त्रयः श्लोकाः। सा दुष्प्रदर्शा मनसापि हिंस्रैः, इत्यब्द्रिशोभा प्रहिते क्षणेन, अलक्षिताभ्युत्पतनो नृपेण, प्रसह्य सिंहः किल तां चकर्ष। तत्र दिलीपः यदा नन्दिनी तत्रैव चरति, एकं क्षणं यावत् सः दिलीपः अद्रिशोभा प्रहिते क्षणेन, तत्र वने तस्य पर्वतस्य शोभां पश्यन् आसीत्। किमर्थं? सा दुष्प्रदर्शा मनसापि हिंस्रैः, सा दैवी धेनुः, कामधेन्वाः पुत्री, वसिष्ठस्य धेनुः, अतः केऽपि हिंस्रप्राणिनः तां न स्पृशेयुः इति विचिन्त्य एकं क्षणं सः पर्वतस्य शोभां पश्यन् आसीत् दिलीपः। तदा अलक्षिताभ्युत्पतनः, तेन अलक्षितः सन् कश्चित् सिंहः तां चकर्ष। सिंहः कश्चित् नन्दिन्याः उपरि आक्रमणं कृतवान्, नन्दिनीम् आक्रान्तवान् कश्चित् सिंहः। सिंहः किल तां चकर्ष। तदीयमाक्रन्दितमार्तसाधोः गुहानिबद्धप्रतिशब्ददीर्घं, रश्मिष्विवादाय नगेन्द्रसक्तां, निवर्तयामास नृपस्य दृष्टिम्। सुन्दरः श्लोकः, कालिदास गिव्स् अ वेरि ब्यूटिफुल् पिक्चर् देर्। सो हि सेस् तदीयमाक्रन्दितं, धेन्वाः आक्रन्दनं, धेनुः यदा सिंहः आक्रमणं कृतवान् तदा धेनुः क्रन्दितवती उच्चैः, तदा तत् आक्रन्दनं नृपस्य दृष्टिं निवर्तयामास. हर् क्रै ड्राग्ड् अवे द विजन् आफ् द किङ्ग्, द ऐस् आफ् द किङ्ग्. He was looking at the mountain, so it dragged away his attention, as if Rashmishu Ivadaya Nagendra Saktam, as if there was an invisible rope which dragged it. Okay, so Vilipa turned around and saw. That's what it means. Sapatalayanga vithasthivamsam dhanurdharah kesarinam dadarsha अधित्यकायामिव धातु मय्यां लोद्धद्रुमं सानुमतः प्रफुल्लम्. दिलीपः धेन्वाः आक्रन्दनं श्रुत्वा परावृत्य दृष्टवान्. किं दृष्टवान्? पाटलायां गवितस्थिवांसं केसरिणं ददर्श. पाटलवर्णा धेनुः सा, सो इट्स् लैक् एन् आरेञ्ज्, रेडिश् आरेञ्ज् कलर् द कौ. So on the cow, that is standing on the cow with its 2 feet on the cow, kesarinam dadarsha, he saw a lion. So dhanurdharah dilipah kesarinam dadarsha. Atra, any significance to the green text? I have just to indicate what is the main thing of the shloka, I have just marked it. A lion dragged her, and turning around, Dilipa saw the lion standing on the cow. Okay, that is what it means. That is the summary of these 3 shlokas. Since we are not studying them in detail, I am just highlighting what is the main point of that shloka. Okay. Agrimaha shlokah asmabhihi pathyate tato mrigendrasya mrigendragami vadhaya vadhyasya sharam sharanyah जाताभिषङ्गो नृपतिर्निषङ्गात् उद्धर्तुमैच्छत् प्रसभोद्धृतारिः. केऽपि अनुवक्तुमिच्छन्ति? रामानुजं महोदय
नमस्ते.
नमस्ते. ततो मृगेन्द्रस्य मृगेन्द्रगामी
ततो मृगेन्द्रस्य मृगेन्द्रगामी ततो मृगेन्द्रस्य मृगेन्द्रगामी
वधाय वध्यस्य शरं शरण्यः
वधाय वध्यस्य शरं शरण्यः वधाय वध्यस्य शरं शरण्यः
जाताभिषङ्गो नृपतिर्निषङ्गात्
जाताभिषङ्गो जाताभिषङ्गो नृपतिर्निषङ्गात् जाताभिषङ्गो नृपतिर्निषङ्गात्
उद्धर्तुमैच्छत् प्रसभोद्धृतारिः
उद्धर्तुमैच्छत् प्रसभोद्धृतारिः उद्धर्तुमैच्छत् प्रसभोद्धृतारिः.
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः
जाताभिषङ्गो नृपतिर्निषङ्गाद् उद्धर्तुमैच्छत् प्रसभोद्धृतारिः
जाताभिषङ्गो नृपतिर्निषङ्गात् उद्धर्तुमैच्छत् प्रसभोद्धृतारिः जाताभिषङ्गो नृपतिर्निषङ्गात् उद्धर्तुमैच्छत् प्रसभोद्धृतारिः.
सम्यक्. पदच्छेदं करोति
वा? ततः मृगेन्द्रस्य, दट्स् अ विसर्गसन्धि, ततः मृगेन्द्रस्य मृगेन्द्रगामी. ओ, मृगेन्द्रस्य मृग इन्द्रस्य गुणसन्धि मृग इन्द्र अगैन् मृगेन्द्रगामी वधाय वध्यस्य शरम् अनुस्वारसन्धि शरण्यः जाताभिषङ्गो जात अभिषङ्कः जात अभि सवर्णदीर्घसन्धि अभिषङ्को अभिषङ्गः विसर्गसन्धि Nirpadir Nishangad. Nirpadihi Nishangad. Nitarga Sandhi again. Uddhartum Aichat. There's no Sandhi there. Uddhartum Aichat. Prasabod Dhritarihi. Prasaba Uddhrata. That's a guna again. Prasaba Uddhrata. Udrita arihi udrithaarihi savarna dirgha
sandhi again. Samyak. So tataha mrugendrasya mruga indrasya mrugendrasya mrugendra gami mruga indra gami mrugendra gami vadhaya vadhyasya sharam sharanyaha jata abhishangaha nrupatihi nishangat Uddhartum Aichat Prasabha Uddhrita Arihi Prasabhodhrita Arihi. So Tato Mrugendrasya. So Tato Mruga there Visargasya Ukaradeshaha. Similarly Jatabhishango Nripatihi. Yadagre Mrudu Vyanjanamasti Tada Visargasya Uttvam Ukaradeshaha Bhavati. Mruga Indrasya Mruga Indra Prasabha Udhrita Trishusthaleshu Guna Sandhihi Jata Abhishangaha Udhrita Arihi Udhritarihi Ubhayatra Savarana Dirgha Sandhihi Nripatihi Nishangat Nripatir Nishangat is Visargasya Repaha Nishangat Udhartum Ityatra Jastra Sandhihi Nishangad Udhartum Iti Tato mrugendrasya mrugendra gami vadhaya vadhyasya sharam sharanyaha jata bhishango nripatir nishangat uddhartum aichat prasabhodhrutarihi kahartaha simham drishtavan simhaha dhenvaha upari tishthati tada saha nripatihi raja dilipaha vadhaya simham hantum mrugendrasya vadhaya Simhasya Hananartham Sharam Uddhartum Aichat Banam Swasya Nishangat. Nishanga is the quiver where the arrows are kept. That is Nishanga. Tataha Banam Uddhartum Ishtavan. So the moment he saw the lion, he wanted to take out an arrow to kill the lion. सहसामान्यार्थः वाक्यविश्लेषणं करोति वा महोदय
करोमि क्रियापदम् ऐच्छत्
सम्यक्
प्रथमा विभक्तिः मृगेन्द्रगामी शरण्यः जाताभिषङ्गः नृपतिः Prasabodhrutarihi.
Samyak. Panchapadani Santi. Mrugendragami, Sharanyaha, Jatabhishangaha, Nripatihi, Prasabodhrutarihi. Sarvamapi, Dilipasya, Visheshanam Bhavati. Ha. Agree.
Dvitiya is Sharam.
Sharam.
And there is no Tridiya. And Chaturthi is Vadaya. Panchami is Nishangat.
Nishangat is Panchami.
Sashti Mrugendrasya. And then there is one more somewhere. Mrugendrasya Vadhyasya.
Mrugendrasya Vadhyasya iti Sashti.
Avyayam Tatah. And Uddhartum, that is the Tumanta. Right?
And Uddhartum, Samyak. So, Avyayam Bhavati. Idanim Anvayaha. So, this is very clear. So, this is the Kartrapada. Nripatihi Sharam Uddhartum Aichat. Kimartham Vadhaya Nishangat Uddhartum Aichat. Anvayam.
Okay. Aichat. Kaha Aichat. Nirpatihi Aichat. Kidrishaha Narpatihi, Mrigendragami, Sharanyaha, Jata Bishankaha, Prasabodhritarihi, Kidrishaha. Kim Kartum Aichat, Uddhartum Aichat. Kim Uddhartum Aichat, Sharam Uddhartum Aichat. Kasmat Sharam, Nishangat Sharam. Kimartam Uddhartum Aichat, Vadaya. Kasya Vadaya, Mrigendrasya Vadaya. Kada Tataha.
Kidrishasya Mrigendrasya.
Kidrishasya Mrigendrasya. Vadyasya Vadaya.
Vadhyasya Mrigendrasya Vadhaya. Samyak. So tataha is a connecting word between the previous words and the next. Tataha ityukte purvatana shloke kimasti sapatalayam gavitasthivamsam dhanurdharaha kesarinam dadarsha simham drishtavan gavi tishtataha. Ataha gavi tishtataha simhasya darshananantaram. Samanantaram, so immediately as soon as he saw the lion, ityarthaha. Aichhat, avanchhat, wanted to. Kaha aichhat, nripatihi, raja dilipaha aichhat. Kidrishaha saha, mrigendra gami, mrigendraha simhaha, simhaha iva yaha chalati. So a very majestic gait like the lion. So the lion is never hurried. Okay, whatever the circumstance, it is very majestic, very planned in its movements. So saha api tadrishaha simha gamanaha dilipaha. Arthat, it is an emergency. I mean, he is suddenly faced with a very difficult situation. Tathapi the in Mrigendragami iti visheshanena, yatha simhaha, it doesn't get flustered, it shows a measured response, tathaiva saha api karoti iti bodhayitum tadrisham visheshanam. Kidrishaha mrigendragami nripatihi, punaha kidrishaha sharanyaha, sharane sadhuhu sharanyaha, yaha sharanagatan rakshati, he who always protects those who take refuge. Tadrishaha sharanyaha. Idanim tu dhenuhu tasya sharane asti. Ataha nishchayena tena rakshanam karaniyam. Ataha sharanyaha mrigendragami nripatihi. Punashcha kidrishaha. Iti chet prasabhodhritarihi. Prasabhena ityukte balat tasya balena udhrita arihi. Arihi shatruho shatravaha udhritaha nivaritaha. So what is the poet trying to convey? He uses three visheshanas. Mrigendragami, sharanyaha and prasabhodhritarihi. Mrigendragami shows his mental readiness to respond to such a situation. Sharanyaha says that he is the one who will always protect the refugees. So he'll definitely, he has the intention to act and he has the bala, the strength to destroy the enemies in a moment. Ataha etadrisha visheshanani dadati kavihi. Okay. So now we have seen three. Mrigendragami sharanyaha prasabhodhratarihi. Kintu idanim, to add insult to injury. Jatabhishangaha. Kidrishaha san aichhat jata abhishangaha. Abhishangaha is an insult or humiliation. Dilipasya rakshane yada dhenuhu asti tada eva simhaha tam akramati iti chet tattu dilipasya balasya eva apamananam. Okay. So it is an insult to his this one. So that is another factor which is making him act quickly. Jatabhishangaha, jataha abhishangaha yasya. So samutpanna parabhavaha. So he who has been insulted or humiliated at this moment, because under his care a momentary lapse of concentration, the cow has been attacked by the lion. Ataha chatvari api visheshanani artha sarthani. So Kalidasa is a poet who rarely, he does not just fill up the stokas. If he uses a visheshana, he uses it with some intent. Okay. So one is here, asmin shloke, anuprasaha sarvatra asti. Mrigendra, mrigendra, vadha, vadhya, shara, sharanya, abhishanga, nishanga, uddhartum, uddhritarihi. Shabdalankaraha to asti, tena saha artha saundaryam api asti. Alankaraha nasti, even though there is no specific alankara as such, there is a very definite beauty of meaning in the way he puts together all the relevant visheshanas for the context. Kenachit prishtam sharanyaha iti punaha vadatu iti. So sharanya is one who always protects those who take sharana. Sharana is rakshana, protection. So whoever seeks protection, he who is ready to offer protection is sharanya. Okay. So Dilipaha tadrishahaya. Kopi tam rakshanartham prichati saha rakshati. Idanim to tasyaha eva daitvamasti dhenvaha rakshanam. Nishchayena tat tena karaniyam iti bhavaha. Evam prasabhodhritarihi sharanyaha mrigendragami nripatihi jatabhishangaha san. So being insulted by this, by the situation, aichhate, kim kartum aichhate, uddhartum, svikartum, to take out, to draw out, ityarthaha. Uddhartum aichhate, kim uddhartum aichhate, sharam, banam svikartum saha ishtavan. Kutaha uddhartum aichhate, nishangat. You can also say, kasmat uddhartum aichhate, nishangat. Tunirat. Tunira is another word for nishanga. Both of them mean a quiver. The cup or the basket like thing, which is usually tied to the shoulders, in which the arrows are kept. That is nishanga. So, dilipaha swasya tunirat banam svikartum ishtavan. Kimartham sharam uddhartum aichhate vadhaya. Vadhaha, samharaha, nashaha, to kill. Kasya vadhaya, mrigendrasya, mriganam indraha, mrigendraha, simhaha. So, simhasya vadhaya, sharam svikartum ishtavan. Kidrishasya mrigendrasya, vadhyasya, vadham arhati iti vadhyaha, that which deserves to be killed, because it has attacked the cow which is under his protection, and there is no way he can save the cow without killing the lion. Ataha hananarhasya simhasya samharaya. Anvayaha purunaha tataha mrigendragami sharanyaha prasabhodhritarihi nripatihi jatabhishangaha san vadhyasya mrigendrasya vadhaya nishangat sharam uddhartum aichhate. So there is a slight, this one, I mean, usually visheshanas are all put before the visheshya. The Nripati is the visheshya. These three indicate his general qualities. They are qualifying him. So saha mrigendraha iva gamanamasti, sharaneshu sadhuho, balena shatrun unmulayitum samarthaha tadrishaha raja. The jatabhishanga is not always a visheshana. That is, he is not always insulted. So at this moment, being insulted, he wanted to draw out the arrow. Ataha jatabhishangaha san iti artham ashritya evam anvayaha kriyate. Kaha arthaha tataha ityukte gavi tishthantam simham drishtva. So seeing the lion standing on the cow, mrigendra gami, simha gamanaha, he who has a gait like the lion, sharanyaha, sharanagatanam rakshakaha, the protector of refugees, prasabhodhrutarihi balat nivarita shatruhu. He who destroys his enemies by force. So tadrishaha nripatihi saharaja dilipaha jatabhishangaha samutpanna parabhavaha san, being insulted. Vadhyasya mrigendrasya vadhaya hananarhasya simhasya samharartham. So to kill the lion. Nishangat sharam uddhartum aichat. Tunirat banam svikartum avanchat. He wanted to take out the arrow from his quiver. Arthaha avagataha. Udhrita ityukte kaha arthaha. Udhrita literally means uprooted. Okay, to take out ityarthaha. When we say uprooting the enemies, arin nashayitum samarthaha ityarthaha. San iti shatru pratyayahava. Asti ityasya shatru pratyaye san iti bhavati. It just indicates a continuity of action. Okay. Arthavagatav anye kepi prashnaham. Tato mrigendrasya mrigendragami vadhaya vadhyasya sharam sharanyaha jata bhishango nripatir nishangat uddhartu maichat prasabhodhrutarihi. Agre gachamaha. Agre vyakaranamshaha. Ye vaktum icchanti hastamunnayantu. Prathamamasti tataha, tataha iti tu avyayamasti mrigendrasya nirmala madini.
Namaste. Namaste.
Namaste. Shruyate. Adat.
Tataha avyayam mrigendrasya mrigendra shabdaha akaranta mrigendra shabdaha pullingaha shashti vibhakti ekavachanam
akarantaha pullingaha shashti vibhakti
ekavachanam then mrigendra gami
atra samasaha kaha mrigendrasya
mriga plus indrasya
samasaha
mriganam indraha yasya
tasya mriganam
indraha tasya
shashti tatpurusha samasaha samyak
shashti samasaha then
so tatra amarakoshe asti simho mrigendraha panchasyah. So the second, the immediately after Simha, the word used for Simha is Mrigendraha, the king of beasts. Agre. Mrigendra Gami.
Mrigendra Gami, Mrigendra Gamin, Nagaranta Shabdaha, Pulinga. Pratama Vibhakti Ekavachana.
Nakarantaha Pullingaha, Mrigendra Gamin Shabdaha. Prathama vibhaktau ekavachanam.
Ekavachanam. Vadhaya.
Ekavachanam. Dhanyavadaha. So mrigendra gami ityatra punaha mrigendra iti asti. Mriganam indraha mrigendraha. Mrigendraha iva gachati. Iti mrigendra gami. Atra kridantaha. Mrigendra ityasmin upapade. Gam dhatoho nini pratyayaha bhavati. Okay, like we say kumbham karoti iti kumbhakaraha. Evam mrigendra iva gachati ityatra mrigendra iti upapadam. Gam dhatoho nini pratyayaha gamin iti bhavati. Kridantaha tataha upapada samasaha. Okay, yaha kenachit prishtam mrigendra gami ityatra upapada samasaha. So, mrigendraha iva gachati. अथवा गन्तुं शीलमस्य इत्यर्थे मृगेन्द्र इत्यस्मिन् उपपदे कृत् प्रत्ययः भवति. मया उपपदसमासपाठे उक्तं स्मरन्तु, आल् उपपदसमासस् इन्वाल्व् अ कृदन्त बिफोर् इट्. सो समासात् पूर्वं धातोः कृत् प्रत्ययः भवति, कृदन्तेन सह समासः भवति. इदानीं मृगेन्द्र इति अस्ति, गमधातोः णिनि प्रत्यये गामिन् इति कृदन्तं, मृगेन्द्र इत्यस्य गामिन् इत्यनेन उपपदसमासः भवति. मृगेन्द्रगामी. अग्रे वधाय. उमा भगिनि. अकारान्तः पुल्लिङ्गः वधशब्दः चतुर्थी विभक्तौ एकवचनं. वधाय वध्यस्य.
वध्य अकारान्त पुल्लिङ्ग वध्यशब्दः षष्ठी विभक्ति एकवचनम्.
अकारान्तः पुल्लिङ्गः वध्य शब्दः षष्ठी विभक्तौ एकवचनम्. वध्य शब्दः तद्धितान्तः. वधम् अर्हति, हि हु डिसर्व्स् टु बी किल्ड्, सः वध्यः. वध इति शब्दात् यत् इति तद्धितप्रत्ययः भवति, तद्धितान्तः शब्दः. वध्यः, दण्ड्यः, शीर्षच्छेद्यः. सो देर् आर् सेवरल् words. So those who deserve to be punished is dandya. He who deserves to be killed is vadhya. Atra kaschit prashnah purvatana mrigendra gami ityatra mrigendrasya gamanam iva gamanam yasya saha iti samasah kriyate chet mrigendra gamanah iti padam bhavati. Asti simha gamanah iti asti. Atah mrigendra gamanah iti bhavati. मृगेन्द्रगामी इति तु तेन न सिद्ध्यति, तेन विग्रहेण. अर्थः समानः, किन्तु अत्र विग्रहः एवं वक्तव्यः. अग्रे शरम् पद्मनाभन्.
शरम् कारान्त पुल्लिङ्गः शर शरम् द्वितीया विभक्ति एकवचनम्.
हा, अकारान्तः पुल्लिङ्गः शर शब्दः द्वितीया विभक्तौ एकवचनम्. शरण्यः.
शरण्यः भवत्या पूर्वोक्तं शरणं अर्ह्यः
शरणे साधुः.
शरणे
साधुः अन्तः लिङ्गं
शरण्य अकारान्त पुल्लिङ्गः
भक्तौ एकवचनं. शरण्यः इत्यत्र शरणे साधुः शरण्यः. शरण नाम रक्षणं, रक्षणे साधुः नाम शक्तः, सः शरण्यः इत्यर्थः. शरणशब्दात् यत् इति तद्धितप्रत्ययः. जाताभिषङ्गः.
जात अभिषङ्गः कर्मधारय कर्मधारय समासः अकारान्त
अकारान्तः
अकारान्त पुल्लिङ्ग एकवचन
अकारान्तः पुल्लिङ्गः प्रथम एकवचनम्. कथं विग्रहः?
जातः अभिषङ्गः
कः अर्थः? जातः अभिषङ्गः, अभिषङ्गः इत्युक्ते इन्सल्ट्, एन् इन्सल्ट् विच् हेस् हेपन्ड्.
Okay, Abhishanga. Okay. Abhishanga itself comes from Abhi plus Saj. don't know the pratyaya which leads to shangaha, abhisangaha. Sakara becomes shakara.
There's a ghai pratyaya.
Ikara in abhi.
So
I don't know the pratyaya.
That is a ghai. That is okay. The vigraha. So if you are saying jataha abhisangaha, it means an insult which has happened. What is jata abhisanga referring to here?
Jata abhisangaha. So it has to be a bahubri. Bahubri. It refers to the Nrupati here.
Correct. So jataha abhisangaha.
Yam saha jata abhisangaha.
Normal relation. Even though in English we say to whom insult has happened, but in Sanskrit it is yasya abhishangaha jataha, yasya apamananam jatam tadrishaha nripatihi. Ataha jataha abhishangaha yasya saha iti bahuvrihi samasaha. Samyak. See, that is the only difference between karmadhare and bahuvrihi. To see what we are finally referring to. Okay. Yadyapi kevalam, if you take out jata abhishangaha, it can be karmadharaya. Kintu asmin prasange jata abhishangaha nripatihi ityasti, ataha atra bahuvrihi samasaha eva vaktavyaha. Abhishangaha parajaye iti amarakoshe asti. Agre nripatihi. Priya bhagini.
Drupatihi ikaranta pullingaha prathama vibhakto ekavachanam.
Ikarantaha pullingaha nrupati shabdaha prathama vibhakto ekavachanam. Vigrahaha.
Naranam patihi.
Naranam patihi narapatihi. Nara ityarthe eva nru iti shabdaha asti. Arthaha samanaha. Nrunam patihi. Nara ityasya shashti vibhaktav naranam bhavati. Nru ityasya nrunam patihi. Athava nrunam patihi nrupatihi shashti tatpurusha samasaha. So sarvam api asti. Nrupaha, nrupatihi, narapatihi, artha samanaha. Everywhere it is similar in derivation. Nrun pati, he who protects the men. Nrun naranam, nrunam patihi, naranam patihi. Nishangat.
Akaranta pullingaha panchami vibhaktau ekavachanam.
Nishanga shabdaha akarantaha pullingaha panchami ekavachanam. Tatra tuna upasanga tunira nishangaha ishudhirdvayoho iti amaraha. So tunaha upasangaha tuniraha nishangaha iti pullinge paryaya padani. Ishudhihi dvayoho. Ishudhi shabdaha pullinge api asti, strilinge api asti, arthaha sayeva. Tunopasanga tunira nishangaha ishudhirdvayoho. Uddhartum.
Uddhartum tumun shabdaha dhru dhatuhu. Upasarga
uttaha.
Ut upasarga uttaha dhru dhatuhu tumun kridanta shabdaha.
Sammik. Ut iti upasargaha dhru dhatuhu tumun pratyayantam avyayam bhavati uddhartum. ధన్యవాదాః ఐచ్ఛత్ మహాదేవన్ మహోదయ
నమస్తే. ఐచ్ఛత్ లంగ్లకారః ప్రథమ పురుష ఏకవచనం.
ధాతుః
ఇష్ ధాతు.
ఇష్ ధాతుః లంగ్లకారే పరస్మైపదే
ప్రథమ పురుష ఏకవచనం.
सम्यक् इश इच्छायाम् इति धातुः रसभोद्धृतारिः
रसभोद्धृतारिः इकारान्तः पुल्लिङ्गः प्रथमपुरुषे एकवचनं समाविभक्तौ एकवचनं निग्रहवाक्यं उद्धृताः अरयः तेन सह उद्धृतारिः प्रसभेण उद्धृताः प्रसभोद्धृताः ऐ थिङ्क् इट् शुड् बी अदर् वे प्रसभेण उद्धृताः प्रसभोद्धृताः प्रसभोद्धृताः अरयः येन सह प्रसभोद्धृतारिः
बहुव्रीहिः आमाम् आदौ तृतीया तत्पुरुषः प्रसभेन उद्धृताः प्रसभोद्धृताः इत्यत्र तृतीया तत्पुरुषः प्रसभोद्धृताः अरयः येन सह बै हूम् द एनिमीज़् हाव् बीन् रिमूव्ड् बै फोर्स् बहुव्रीहि समासः सम्यक् उत्तमम् ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत् प्रसभोद्धृतारिः अत्र अनुप्रासः बहुधा समानव्यञ्जनानाम् आवृत्तिः अस्ति इवन् दो यु हियर् द मृगेन्द्र मृगेन्द्र ट्वैस् इट् डस् नाट् लिटरली क्वालिफै फार् यमक बिकास् इन् यमक they are used in different senses tatra artha visheshah api bhavati atra ubhayatra simhah ityeva arthah atah visishya yamakam iti nasti anuprasah asti vruttam tu upajatihi tato ityatra vadhaya ityatra laghuh atah upendra vajra jata abhishangah uddhartum aichhat iti indra vajra उपजातिः वृत्तम् अग्रे पुनः अयं त्रिंशः श्लोकः सर्गे श्लोकद्वयं नास्ति मध्ये वामेतरस्तस्य करः प्रहर्तुः नखप्रभाभूषितकङ्कपत्रे सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे वाट् हेपन्ड् वेन् ही ट्रैड् टु रिमूव् or draw an arrow from his quiver tasya karah vame tarah vamam nama left vame tarah is the right so when you are taking an arrow it's obviously from the right hand so he puts his hand near his shoulder to take out the arrow kintu tasya karah saktangulihi so the anguli the fingers were stuck sakta sayaka punkha to the feathers of the arrow in the quiver if you imagine it is put the sharp point is down so above you have the tail end which has that feathered structure for it for to help it in flight so sayaka punkhe saktangulihi his fingers were stuck to the arrow to the tail feathers of the arrow चित्रार्पितारम्भ इव अवतस्थे चित्रार्पितारम्भः इव हि स्टुड् एस् इफ् हि वास् इन् अ पेण्टिङ्ग् दट् इस् हि कुड् नाट् मूव् हिस् हेण्ड् सो वेन् हि ट्रैड् टु टेक् औट् हिस् एरो हिस् हेण्ड् गोट् स्टक् टु हिस् एरो अण्ड् हि कुड् नाट् मूव् हिस् हेण्ड् सो चित्रार्पितारम्भ इव अवतस्थे इट् लुक्ड् एस् इफ् इट् वास् पेण्टेड् दट् इस् देर् वास् नो मूवमेण्ट् इन् हिस् रैट् हेण्ड् विच् हि placed in his to take out his arrow okay so bahu pratishtambha vivruddha manyuh abhyaranam agaskritam sprishadbhih raja svatejo bhiradahyatantah bhogiva mantraushadhi ruddha viryah the king is enraged because I mean after all his cow is in danger and now bahu pratishtambha his hand is paralyzed so tena vivruddha manyuh he is extremely angry but he is unable to do anything agaskritam asprishadbhihi svatejobhihi his anger or his tejas is unable to touch the lion ataha antaha adahyata. It was as if the king was burning inside because of his anger, his frustration at not being able to do anything. Iti shloka dvayam asti. Agre tamar yagrishyan nigrihita dhenuhu manushya vacha manuvamshaketum vismayayan vismitam atma vrittau simhoru sattvam nijagada simhaha. Kopi anuvaktum icchati. Sudha bhagini. Tamaryagrihyam nigrihita dhenuh.
Tamaryagrihyam nigrihita dhenuh.
Manushyavacha manuvamshaketum.
Manushyavacha manuvamshaketum.
Vismayayan vismitamatma vrittau.
Vismayayan vismitamatma vrittau.
Simhoru sattvam nijagada simhaha.
Simhoru sattvam nijagada simhaha.
Tamarya grihyan nigrihita dhenuh manushya vacha manuvamshaketum.
Tamarya grihyam nigrihita dhenuh manushya vacha manuvamshaketum.
Vismayayan vismitam atma vrittau. Simhoru sattvam nijagada simhaha.
Vismayayan vismitam atma vrittau. Simhoru sattvam nijagada simhaha.
Paracchedaha.
Tam aryagrihyam. Atra savarna dirgha sandhi bhavati.
Tam aryagrihyam. Sandhi nasti.
Nigrihita dhenuh manushya vacha manu vamsha ketum vismayayan vismitam atma vrittau simhoru sattvam nijagada
సింహ. సో తమ్ ఆర్య గృహ్యం నిగృహీత ధేనుః మనుష్య వాచ మను వంశ కేతుం విస్మాయయన్ విస్మితం ఆత్మ వృత్తౌ సింహ ఉరు సత్వం. సింహోరు సత్వం సమస్త పదం, ఉరు సత్వం ఇత్యర్థః. నిజగాద సింహః అత్ర కిమపి నాస్తి. సింహ ఉరు ఇత్యత్ర సింహోరు ఇతి గుణసంధిః తావదేవ. కః అర్థః? సః దిలీపః విస్మితః. కిమర్థం? స్వస్య కరః ప్రతిష్టబ్ధః ఝటితి తేన విస్మితః తం విస్మాయయన్. సో హిస్ ఆల్రెడీ సర్ప్రైజ్ దట్ హీ ఇస్ నాట్ ఏబుల్ టు మూవ్ హిస్ హ్యాండ్. సో అస్టానిషింగ్ హిమ్ ఫర్దర్, సింహః నిజగాద. ద లయన్ స్పోక్. కథం మనుష్యవాచ నిజగాద. స్పోక్ ఇన్ అ హ్యూమన్ వాయిస్. సో కరస్య స్తంభనేన దిలీపః విస్మితః. తస్మిన్ ఇతోపి ఆశ్చర్యం జనయన్ సింహః మనుష్యధ్వనినా అభాషత. ద లయన్ స్పోక్ టు హిమ్ ఇన్ హ్యూమన్ వాయిస్ ఇతి సామాన్యార్థః. విభక్తిః భగిని.
విభక్తి అత్ర క్రియా విశేషణం నిజగాదః. నిజగాద
క్రియాపదం. నిజగాద
నిజగాద ప్రథమా విభక్తి సింహః. నిగ్రహీత ధేనుః. విస్మిత ఆత్మవృత్తౌ.
No, this one. Vismayayan e shatri.
Vismayayan e shatranta pratama. Yes. Pratama. This is all pratama. Then dvitiya vibhakti tamarya grahyam. Tam arya grahyam manuvamsha ketum. సింహోరు సత్వం.
వన్ మోర్.
విస్మితం.
విస్మితం. సోతం ఆర్యగృహ్యం మనువంశకేతుం విస్మితం సింహోరు సత్వం.
తృతీయ మనుష్య వాచ. ఆత్మవృత్తౌ విల్ బి సప్తమి.
ఆత్మవృత్తౌ ఇస్ సప్తమి.
సప్తమి.
I think that's it. There is nothing else. We have covered everything. Tamarya grihyam vigrihita dhenuhu manushyavacha manuvamshaketum vismayayan vismitam arya vrittau atma vrittau simhoru sattvam nijagada simhaha. Anvayaha.
Kriyapadam nijagadaha.
Nijagada.
Abravit. కహ నిజగాదః సింహః నిజగాదః. 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 కహ నిజగాదః సింహః. ఈదృశ సింహః నిగ్రహీత ధేనుః సింహః. విస్మాయయన్ సింహః అపి. బికాజ్ ఇట్ ఇస్ ఇన్ నిజంత. అత్రైవ. కం కం నిజగాదః తం. కీదృశ
కీదృశ విస్మాయయన్ ఇత్యపి వక్తుం శక్యతే.
కం నిజగాదః తం ఆర్య గృహ్యం మను వంశ కేతుం విస్మితం. దెన్ కుత్ర నాట్ ఆత్మవృత్తౌ
కుత్ర విస్మితం.
కుత్ర విస్మితం ఇస్ ఆత్మవృత్తౌ విస్మితం. అండ్ కేన జగాద మనుష్య వాచా జగాద.
తదే అత్ర సో యూ కెన్ రిలేట్ దట్ మనుష్యవాచ టు ఇదర్ నిజగాద ఆర్ విస్మాయయన్. సో మల్లినాథ టేక్స్ ఇట్ విత్ విస్మాయయన్, దట్ ఈస్ సర్ప్రైజింగ్ హిమ్ విత్ ద హ్యూమన్ వాయిస్. సో విస్మయస్య కరణం వాక్, ఇట్స్ హ్యూమన్ వాయిస్ ఈజ్ ద ఇన్స్ట్రుమెంట్ ఆఫ్ విస్మయ అస్టానిష్మెంట్ ఇది స్వీకరోతి. సో నిజగాద ఉవాచ ఉక్తవాన్ సెడ్ కహ నిజగాద సింహః కేసరీ మగేంద్రః ఇత్యాది సహ నిజగాద కీదృశః సింహః నిగృహీత ధేనుః దట్ విచ్ హస్ కాట్ హోల్డ్ ఆఫ్ ద కౌ, దట్ విచ్ హాస్ ద కౌ అండర్ ఇట్స్ కంట్రోల్. నియంత్రిత ధేనుః సింహః నిజగాద ఉవాచ కిం కుర్వన్ నిజగాద విస్మాయయన్ విస్మయతే విస్మాయయతి to cause wonder, so causing wonder in the king. So ashcharyanvitam kurvan uktavan kaya vismayayan manushya vacha manava sadrisha bhashanena saha vismayam janayan vacha kam vismayayan tam tam dilipam kidrisham tam arya grihyam. సో ఆర్య గృహ్య ఆర్యాణాం గృహ్య గృహ్య మీన్స్ గృహే భవ, హీ హూ ఈజ్ ఇన్ ద హౌస్ మీన్స్ హీ హూ ఈజ్ ఆల్వేస్ పార్షియల్ టువర్డ్స్ సజ్జనస్. సో ఆర్యా సజ్జనాః తేషాం పక్ష్యః తేషాం పక్షపాతి సజ్జన పక్షపాతి ఇత్యర్థః. హీ హూ ఈజ్ పార్షియల్ టు సజ్జనస్ ఆర్య గృహ్యం. పునః కీదృశం మనువంశకేతుం మనువంశ మనుకుల తత్రాదోవేవ సహ వర్ణయతి మనువంశే జాతః దిలీపః తస్య కేతుః. కేతు లిటరలీ మీన్స్ అ ఫ్లాగ్. So it is like the flag bearer of the Manuvamsha. Shreshtaha ityarthaha. So Manukule Shreshtaha Tadrisham Dilipam Simhaha Nijagada. Punakidrisham Simhoru Sattvam Uru Sattva Uru Ityukte Bahu Ityarthaha. Mahat Sattvam Yasya. He who has great strength or valor is Uru Sattvaha, like the lion. So he is equal to the lion in his valor. Tadrisham Dilipam Punakidrisham Vismitam Chakitam, who is astonished. Kutra Vismitam Atma Vrittavu, his own situation. Who is wonderstruck at his situation, where he wants to attack the lion but he is unable to do so because his hand is stuck. So Swasya Bahu Pratishtambhe Chakitaha Dilipaha Tam Itopi Ascharyanmitam Kurvan Swasya Vanya Simhaha Uktavan Evanchanvayaha Tam Aryagrihyam Manuvamshaketum Simhoru Sattvam Atmavrittau Vismitam Manushyavacha Vismayayan Simhaha Nijagada. Okay. Atma Shabdaha Simham Nirdeshativa Dilipamiti Swasya Ityeva Arthaha Atmanaha Vrittihi. So his own situation, because see, as he says, Arya Grihya Sajjana Pakshapati Dilipaha Ataha Niraparadhinim Dhenum Rakshitum Ichchati. And he is Manuvamshe Shreshtaha Mahabalaha Tathapi Asahayaha. He is now rendered helpless. Despite wanting to help the cow, despite being a great king of the Manu lineage, and despite possessing great valor, he is now helpless because he is unable to move his hand. Ataha saha vismitaha atmavrittau swasya parishthitau saha vismitaha tam punaha manushyavacha vismayayan. So sajjanam manuvamsha shreshtham mahabalam swasya bahu pratishtambhena vismitam dilipam manava sadrisha bhashanena itopi ascharyanvitam kurvan saha kesari uvacha. So that lion spoke in a human voice, causing even more wonder in Dilipa, who was already surprised by his own situation where he is unable to do anything. Tamarya grihyan nigrihita dhenuh manushyavacha manuvamshaketum vismayayan vismitam atmavrittau simhoru sattvan nijagada simhaha. Vyakaranamshaha evaktumichanti kripaya. Sujata Magini.
Tam Dakarantaha Pullingaha Satchaptaha Ditya Vibhakti Ekavachanam.
Dakarantaha Pullingaha Ditya Vibhakti Ekavachanam. Arya Grihyam.
Akarantaha Arya Grihya Saptaha Pullingaha Dutiya Vibhakti Ekavachanam.
Samyak. Arya Grihyaha Akarantaha Pullingaha Dutiya Vibhakti Ekavachanam. Samasaha.
Arya Grihyam
Samanyam Shashti Tatpurushaha
Aryanam
Aryanam Grihyaha.
Grihyaha.
So he who is in the party of the Sajjanas Ityarthaha. Aryanam Grihyaha Arya Grihyaha Tam iti Shashti Tatpurushaha.
Even this is Dandyaha Ibhava Samanava.
As in, it is a tathita pratyaya, but it is not the same artha. The meaning is not arhati,
Okay.
So it is grihe bhavaha grihyah. So in adhitas, several, the same pratyaya is added in several different meanings. So atra, as we saw there, in sharanya also it is yat. But sharane sadhu sharanyaha, vadham arhati vadhyah, grihe bhavati grihyah. Okay, so there are different... this one. Okay. Atra aryaihi grihyah iti bhavitum shakyateva iti katra, if you are deriving, taking grihya as a kridanta, then he who can be aryaihi grahitum shakyah grihyah ityapi vaktum shakyeta. That's also possible, giving the same meaning. Shakyate arthetu bhedah na bhavati iti chintayami. Agre Chandrasekharan Mahodaya grihita dhenuh
ukaranta strilinga shabdah pratama ekavachanam
strilinga va kaha grihita dhenuh
simha astu pullinga shabdah
ukaranta pullinga pratama vibhaktau ekavachanam vigrahah
धेनुः निगृहीतः येन सः
धेनुः
निगृहीता येन सः
धेनुः निगृहीता सो निगृहीता धेनुः येन सः निगृहीत धेनुः बहुव्रीहि समासः सम्यक् मनुष्यवाचा
मनुष्यवाचा मनुष्यवाच् वाच् इति चकारान्त स्त्रीलिङ्गशब्दः तृतीया एकवचनम्
चकारान्तः स्त्रीलिङ्गः मनुष्यवाच् इति तृतीया एकवचनम्
मनुष्याणां वाक् षष्ठीपुरुषः
मनुष्याणां वाक् मनुष्यवाक् षष्ठी तत्पुरुषः तया मनुष्यवाचा बै ह्यूमन् स्पीच् इत्यर्थः मनुवंशकेतुम्
केतुः मनुषकेतु इति पुल्लिङ्गशब्दः उकारान्तपुल्लिङ्गशब्दः द्वितीया एकवचनं मनुष्याणां मनुष्यवंशकेतु मनुवंशस्य केतुः तं मनोः
मनुवंशः मनुवंशस्य केतुः उभयत्रापि षष्ठी तत्पुरुषसमासः सम्यक् धन्यवादाः अग्रे विस्माययन् राधा
ककारान्तः पुल्लिङ्गः विस्मायत् शब्दः प्रथमावृत्ति एकवचनं
विस्माययत् इति तकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनं हा अत्र
विस्मित्र विस्मित शब्दः अकारान्तः पुल्लिङ्गः विस्मित शब्दः द्वितीया विभक्तौ एकवचनं
सत्यम् सम्यक् एकं क्षणं अत्र विस्माययन् इत्यत्र वि इति उपसर्गः विस्मि इति धातुः निजन्तात् शत्रुप्रत्ययः सो विस्मयते इस् टु बी सर्प्रैज्ड् सो विस्माययति इस् टु कास् सर्प्रैज् इन् सम्बडि एल्स् सो निजन्तः निजन्तात् शत्रुप्रत्यये विस्माययन् इति भवति विस्माययत् इति विस्मितम् अकारान्तः पुल्लिङ्गः द्वितीया विभक्तौ एकवचनम् अत्रापि वि उपसर्गः स्मि धातोः क्त प्रत्ययः कृदन्तः सो क्त प्रत्ययः विस्मितम् आत्मवृत्तौ
आत्मवृत्तिशब्दः इकारान्तः
इकारान्तः स्त्रीलिङ्गः आत्मवृत्ति शब्दः सप्तमी विभक्तौ एकवचनं समासः आत्मनः वृत्तिः आत्मवृत्तिः
तस्याम्
सम्यक् षष्ठी तत्पुरुषः तस्याम् इति भवति. अग्रे सिंहोरुसत्त्वम् प्रिया भगिनी
अकारान्त पुल्लिङ्गः द्वितीया विभक्तौ एकवचनं सिंहोरुसत्त्वम्
विग्रहः
विग्रहः सिंहः इव उरुसत्त्वम्
उरुसत्त्वः
सिंहः इव उरुसत्त्वः तम् कर्मधारे समासः
कः कर्मधारयः
सिंहः उपमान
तत्र उरुसत्त्वः इत्यत्र उरुसत्त्वं यस्य सः उरु इत्युक्ते महान् महत् इत्यर्थः सो महत् सत्त्वं यस्य बहु बलम् अस्ति इति उरुसत्त्वः इति बहुव्रीहिः सिंहः इव उरुसत्त्वः सिंहोरुसत्त्वः इत्यत्र उपमानपूर्वपदकर्मधारयः तं सिंहोरुसत्त्वम् निजगाद
निजगाद लिट्
लिट्लकारे
लिट्लकारे प्रथमपुरुषः एकवचनं
लिट्लकारे प्रथमपुरुषे एकवचनं गद् धातुः जगाद इति भवति जगाद जगदतुः जगदुः यथा उवाच ऊचतुः ऊचुः स एव अर्थः टु स्पीक् इत्यर्थः गद व्यक्तायां वाचि इति धातुः निजगाद सिंहः
अकारान्त पुल्लिङ्गः प्रथमाविभक्तौ एकवचनं
सो सिंहो मृगेन्द्रः पञ्चास्यः हर्यक्षः केसरी हरिः इति अमरकोशः केनचित् पूर्वं पृष्टं पञ्चास्यः इति कथमिति तत्र पञ्च इत्यस्य विस्तृतम् इत्यर्थः अस्ति अत्र पञ्च इत्यस्य फैव् इत्यर्थः न सो पञ्चास्यः सो पञ्चम् इत्युक्ते तत्र बहु बृहत् इत्यर्थः अस्ति अतः विस्तृतम् एक्स्पाण्डेड् इत्यर्थः अतः तस्मिन् अर्थे पञ्चास्यः दट् विच् हेज़् अ वेरि एक्स्टेण्डेड् मौत् इत्यर्थः पञ्चास्यः सो तमार्यगृह्यं निगृहीतधेनुः मनुष्यवाचा मनुवंशकेतुं विस्माययन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगादसिंहः अत्रापि वृत्तम् उपजातिः केचन प्रश्नाः सन्ति मनुवंशः सूर्यवंशः नहि वा इति समानः सूर्यस्य वंशे एव मनुः सो सूर्यः आदिपुरुषः सो तस्यैव वंशे मनुः ततः इक्ष्वाकुः ततः रघुः सो द सेम् डिनास्टि इस् नोन् बै डिफ्रेण्ट् वेरि प्रामिनेण्ट् किङ्ग्स् आफ् द लीनियेज् सो आदिपुरुषः सूर्यः देन् द फस्ट् किङ्ग् वास् मनु then you had ikshvaku so they are also known as ikshvaku vamshiyas then raghu so they are known as raghu vamshiyas and so on manu iti vamshaha iti ashuddham va iti yeah because it is not just the name it is the dynasty of manu it is not just the dynasty is named as manu atah manoha vamshaha ityeva svikriyate okay विस्मयते इति आत्मनेपदी बट् विस्माययति usually nijantas are both parasmaipadis and atmanepadis. Nijantas are ubhayapadis. So vismayayati is also possible. Even when the original dhatu is parasmaipadi or atmanepadi, nijantaha ubhayapadinaha bhavanti, samanyataha. So atra kurmaha adya shloka dvayam drishtam. Dilipaha simham hantum. Banam uddhartum prayatnam kratavan, kintu na shaktavan, tasya karaha na svaktaha, ataha atyantam vismitaha, tada simhaha tam vaktum arabdhavan. Kim vadati simhaha iti agre uchyate, agrima varge shlokadvayam, so 37 and 40, so these are the two shlokas which are which we will discuss in the next class. Okay. So, Vagartha viva sampruttav Vagartha pratipattaye Jagatah pitarau vande Parvati parameshwarau Gurureva gatir gurumeva bhaje Gurunaiva sahasmi namo gurave Naguroh paramam shishurasmi guror matirasti gurau mamapahi guro. Agrima saptahe vargaha nasti Agre julai masasya shadvimshe dinanke. So no classes next week. I have some other commitments. So we will continue the Friday, the week after, 15 days from now. Dhanyavadaha.